इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा उल्फ क्रिस्टर्सन इत्यनेन सह व्यापार हरित परिवर्तन एआई तथा रक्षा क्षेत्रेषु सहकारस्य समीक्षायै वार्तालापं करिष्यति। भारत नीदरलैंड्स देशौ द्वैपाक्षिक सम्बन्धान् सामरिक सहभागित्वेन वर्धितवन्तौ। प्रमुखेषु क्षेत्रेषु सहयोगं सुदृढं कर्तुं 17 सन्धिपत्रेषु हस्ताक्षरितवन्तौ। होर्मुज जलसन्धौ वाणिज्यिक नौकायानस्योपरि आक्रमणानि अस्वीकार्यानि इति भारतेन निन्दितम्। कांगो युगाण्डा देशयोः इबोला प्रकोपः अन्ताराष्ट्रिय चिन्तायाः सार्वजनिक स्वास्थ्यापत्कालेति विश्व स्वास्थ्य संघटनेन घोषितम्। अपि च बैडमिंटन क्रीडायां भारतस्य श्रेयांसी वाल्लिसेट्टी इत्येषा बावोजी चाइना मास्टर्स स्पर्धायां महिला एकल क्रीडायां रजत पदकं विजितवती। अथ वार्ताः विस्तरेण। भारतस्य प्रधानमन्त्री नरेन्द्र मोदी गोथेनबर्ग नगरं सम्प्राप्तवान्। नीदरलैंड्स देशस्य स्वीयां यात्रां समाप्य असौ अद्य सायंकाले स्वस्य 5 यात्रायाः तृतीये चरणे स्वीडन देशं सम्प्राप्तवान्। स्वीडन देशस्य स्वीयायां द्विदिवसीय यात्रायां श्रीमोदी अद्य स्वीडिश प्रधानमन्त्रिणा उल्फ क्रिस्टर्सनेन सह द्विपक्षीय वार्तां करिष्यति तथा द्विपक्षीय सम्बन्धानां सर्वेषां पक्षाणां समीक्षापि विधास्यति। उभयोः पक्षयोः व्यापारः हरितपरिवर्तनं कृत्रिमबुद्धिमत्ता स्टार्टअप्स सुदृढ आपूर्तिशृङ्खलाः रक्षा अन्तरिक्षं जलवायुपरिवर्तनं जनसम्बन्धाश्च इत्यादिषु सहयोगस्य नूतनान् मार्गान् अन्वेष्टुम् अपेक्षास्ति। उभौ प्रधानमन्त्रिणौ उर्सुला फॉन डेर लेयन इत्यनया यूरोपीय आयोगस्य अध्यक्षया सह मिलित्वा यूरोपीय उद्योग गोलमेज सम्मेलनम् अपि सम्बोधयिष्यतः यत् प्रमुखम् अखिल यूरोपीय व्यापार मञ्चमस्ति। स्वस्य द्विदिवसीयायाः नीदरलैंड्स देशस्य यात्रायां प्रधानमन्त्री श्रीमोदी स्वस्य डच समकक्षीयेण सह द्विपक्षीय वार्तां कृतवान्। उभौ देशौ रक्षा महत्वपूर्ण खनिज तथा अन्येषु प्रमुख क्षेत्रेषु सहयोगं सुदृढीकर्तुं 17 सन्धिपत्राणि हस्ताक्षरितवन्तौ। उभौ नेतारौ पश्चिम एशिया देशस्य स्थितेः तथा वैश्विक ऊर्जा आपूर्ति व्यापारस्य उपरि तस्य प्रभावस्य विषये गभीरां चिन्तां प्रकटितवन्तौ। सामाजिकान्तर्जालीये पटले लिखिते सन्देशे श्रीमोदी उक्तवान् यत् नीदरलैंड्स देशस्य तस्य यात्रा द्विपक्षीय सम्बन्धान् नूतने स्तरे नेष्यति। प्रधानमन्त्री नरेन्द्र मोदी मई मासस्य 31 दिनांके आकाशवाण्याः मन की बात इति कार्यक्रमे देश विदेशस्थ जनैः सह विचार विनिमयं करिष्यति। इदं हि मासिकस्य रेडियो कार्यक्रमस्य 34th संस्करणं भविष्यति। जनाः नमो ऐप इति चलदूरभाषीय तन्त्रांशे माई जी ओ वी ओपन फोरम इत्यत्र अथ च 1800117800 अनेन दूरभाष संख्या माध्यमेन च कार्यक्रमस्य विषये स्वीय प्रतिक्रियां दातुं शक्नुवन्ति। आगामि संस्करणाय परामर्शाः अस्य मासस्य 31 दिनांक पर्यन्तं स्वीकृताः भविष्यन्ति। होर्मुज जलसन्ध्यां वाणिज्यिक नौकासु कृतं होर्मुज आक्रमणम् अस्वीकार्यम् इति कथयन् संयुक्तराष्ट्रसङ्घे भारतस्य स्थायी प्रतिनिधिः पर्वतनेनी हरीशः उक्तवान् यत् नागरिक नौकाचालकानां लक्ष्यीकरणं तथा नौवहन स्वातन्त्र्यस्य बाधा केनापि प्रकारेण न्यायोचितं न भवितुमर्हति। सः वैश्विक ऊर्जा आपूर्ति प्रवाहस्य सुरक्षा विषये संयुक्तराष्ट्रस्य आर्थिक सामाजिक परिषदः विशेष सभायां भाषणं कुर्वन् आसीत्। श्रीहरीशस्य एषा टिप्पणी ओमान तटस्य समीपे भारतीय ध्वजयुक्तायां वाणिज्यिक नौकायां जातस्याक्रमणस्य कतिपय दिनानन्तरम् आगता। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय गृह सहकारिता मन्त्री अमित शाहः एआई तथा डीप टेक इत्येतौ भविष्यस्य अर्थव्यवस्थायाः मुख्यस्तम्भौ इति वर्णितवान्। अद्य गुजरातस्य अहमदाबाद नगरे मिलियन माइंड्स टेक पार्क फेज वन तथा ग्रैमी सिटी कैंपस इत्येतयोः उद्घाटनं कुर्वन् सः अवदत् यत् भारतं विश्वस्य प्रत्येकस्मिन् उदयोन्मुख क्षेत्रे अग्रणी अभवत्।
आने वाले 25 साल में जो सेक्टर विश्व की अर्थनीति को, विश्व के अर्थतंत्र को दिशा देंगे, वो सभी क्षेत्र में आज भारत फाउंडर बनकर अपनी मजबूत उपस्थिति को दर्ज करा रहा है और यही बता रहा है कि भारत का भविष्य बहुत सुनहरा है। एआई और डीप टेक के जो भविष्य है, इसके लिए इसके जैसे टेक पार्क बहुत बड़ा काम भी करेंगे और इसको आगे भी बढ़ाएंगे।
केन्द्रीय नवीकरणीयोर्जा मन्त्री प्रह्लाद जोशी अवदत् यत् भारतदेशेन एकस्मिन्नेव दिने 4.6 गीगावाट परिमिता अभिलेखीय उच्च विद्युत आवश्यकता सफलतया पूरिता। एकस्मिन् निजी आंग्ल समाचारपत्रेण सह वार्तालापे श्रीजोशी महोदयः उक्तवान् यत् विद्युत् आवश्यकतायाः प्रायः 33% नवीकरणीयोर्जा स्रोतैः पूरितम्। तेनोक्तं यत् भारतस्य विद्युत् संरचना अधुना अधिका सुदृढा, भविष्याय च सज्जा अस्ति। मन्त्री अग्रे उक्तवान् यत् एतत् परिवर्तनम् ऊर्जा क्षमतायाः तीव्रविस्तारं, विद्युतिकीय सुदृढीकरणं तथा च राष्ट्रस्य विकासपथे स्वच्छोर्जायाः वर्धमानं योगदानं प्रदर्शयति। त्रिवेन्द्रम् न्यूदेल्ही राजधानी एक्सप्रेस रेलयानस्य पृष्ठभागे जातस्य अग्निकाण्डस्य उच्चस्तरीयान्वेषणस्य आदेशः रेलमन्त्रालयेन प्रदत्तः। अद्य प्रातः प्रायः 5:15 कोटा संभागस्य नागडा क्षेत्रस्य समीपे त्रिवेन्द्रम् न्यूदेल्ही राजधानी इत्यत्र एकः गार्डकोचः, एकः AC-3 tier इत्येतयोः द्वयोः कोचयोः अग्निप्रकोपः अभवत्। मन्त्रालयः अवदत् यत् कोचमध्ये सुरक्षाव्यवस्थायाः तत्क्षणमेव कार्यं कृतम्, रेलयानं च स्वयमेव स्थगितम्। रेलचालकदलेन तत्क्षणमेव प्रभावितौ उभौ कोचौ पृथक् कृतं तथा च अस्यां घटनायां यात्रिणः क्षतेः कापि सूचना नास्ति। विश्वस्वास्थ्यसंघटनेन इबोला महामार्याः घोषणा कृता। कांगो लोकतांत्रिक गणराज्य तथा युगांडा देशयोः प्रसृतं कोरोना विषाणोः प्रकोपं अन्तर्राष्ट्रियस्तरे सार्वजनिक स्वास्थ्य आपत्कालरूपेण घोषितमस्ति। विश्वस्वास्थ्यसंघटनस्य महानिदेशकः टेड्रोस अधानोमा घेब्रेयसस इत्यनेन 300+ संदिग्ध प्रकरणानां तथा 88 मृत्यूनां विवरणानन्तरम् एषा निर्णयः प्रदत्तः। WHO संस्थया सामाजिक अन्तर्जालीय पटले प्रकाशिते सन्देशे स्पष्टतया उक्तं यत् अयं प्रकोपः COVID-19 इव वैश्विक महामारी आपत्कालस्य श्रेण्यां नागच्छति तथा च अन्तर्राष्ट्रिय सीमाः न निरोधव्याः इति परामर्शः अपि प्रदत्तः। स्वास्थ्य अधिकारिभिः उक्तं यत् अयं प्रकोपः इबोला विषाणोः दुर्लभेन बंडिबुग्यो प्रभेदेन सम्बद्धः अस्ति, यस्य कृते अधुना किमपि स्वीकृतम् उपचारः उपवा उपलब्धः नास्ति। इबोला रोगः शरीरद्रवसंस्पर्शेन प्रसारं करोति तथा च गभीरां, प्रायः प्राणघातिनीं च व्याधिं जनयितुं शक्नोति। बैडमिंटन क्रीडायां भारतस्य श्रेयांसी वाल्लिसेट्टी इत्येषा बाबोजी चाइना मास्टर्स स्पर्धायां महिला एकल क्रीडायां रजत पदकं विजितवती। अद्य नेपालदेशीया पर्वतारोही कामी रीता शेरपा इत्येषा 32 माउंट एवरेस्ट शिखरम आरुह्य ऐतिहासं विरचितवती। 50+ एषा पर्वतारोही विश्वस्य उच्चतम शिखरम सर्वाधिकवारं आरोहणस्य स्वकीयमेव कीर्तिमानं पुनः आरेखितवती। इति वार्ताः।